अस्तु, तर्हि द्रव्यनिरूपणप्रसङ्गे वयं स्मः. गतवर्गे अस्माभिः पृथ्वी, जलं, तेजः, वायुः इत्येषां द्रव्याणां निरूपणं कथं भवति इति दृष्टमासीत्. तत्र च सामान्यतया लक्षणवाक्येषु गन्धवती पृथ्वी, शीतस्पर्शवत्यः आपः, उष्णस्पर्शवत् तेजः अथवा रूपरहितस्पर्शवान् वायुः इति यद्यपि दृश्यते, तथापि लक्षणम् आधारीकृत्य वाक्यं कथं रचनीयम् इति वयं दृष्टवन्तः. नाम लक्षणम् इति यदस्ति तद्वाक्ये प्रथमा विभक्त्यां भवतु इति आशयः आसीत्, यथा गन्धवत्वं पृथिव्याः लक्षणम् इति. तर्हि तेन किं ज्ञायते इति चेत्, अस्तु, लक्षणं किम् अस्ति, लक्षणं कुत्र अस्ति इति स्पष्टतया निर्देशः प्राप्यते इति कृत्वा तादृशलक्षणवाक्यस्य कथनं, यत्र लक्षणपदमेव प्रथमविभक्त्यां भवति, तत्तु तटस्थलक्षणम् इति आसीत्. तदनन्तरं करपत्रमपि पठितवन्तः, यत्र सुवर्णं तैजसं द्रव्यम् इति साधितमासीत्. तर्हि नैयायिकानां तर्कस्य पङ्क्तिः कीदृशी भवति इति किञ्चित् अवलोकितवन्तः. अद्य इतः अग्रे सरेम. तर्हि अस्तु, नूतनतया केन केन आगतं, नामानि कृपया.
नमस्ते भगिनि, रत्ना अस्मि.
रत्ना भगिनी, अनन्तरं
भगिनि. नमस्ते.
नमस्कारः भगिनि. अस्तु, अस्माकं सोमवासरस्य वर्गे द्रव्यनिरूपणप्रसङ्गे एकः प्रश्नः आगतः आसीत्, तस्य विषये किञ्चित् चर्चा भवतु इति. तर्हि प्रश्नः एवम् अस्ति यत्, अस्तु, गन्धवती पृथ्वी इत्यत्र गन्धग्राहकं घ्राणम् इति इन्द्रियम् आसीत्, किन्तु ततः अग्रे गत्वा शीतस्पर्शवत्यः आपः इति लक्षणवाक्यम् अस्ति, किन्तु तत्र इन्द्रियं रसग्राहकं रसनम् इति उक्तं जलस्य विषये. तर्हि नमस्कारः महोदय. अस्तु, तर्हि तस्मिन् प्रसङ्गे लक्षणवाक्यानि दृष्ट्वा प्रश्नः आगतः यद् तत्र शीतस्पर्शवत्यः आपः इति उक्त्वा तत्र विशेषगुणः अस्ति जले, शीतस्पर्शः इति. तर्हि तस्य ग्राहकः, ग्राहकमिन्द्रियं त्वग् अस्ति, अस्तु, तद् अनुक्त्वा इन्द्रियं रसग्राहकम् इति उक्तमस्ति. तद्वदेव उष्णस्पर्शवत् तेजः इति स्पर्शस्य उल्लेखः क्रियते, तथापि इन्द्रियम् अस्ति रूपग्राहकं चक्षुः, रूपरहितस्पर्शवान् वायुः, तत्र इन्द्रियमस्ति त्वग् इति. तर्हि तत्र किं चिन्तनमस्ति, समन्वयः भवति वा गुणस्य अपि च इन्द्रियस्य, अथवा किं कस्यचित् चिन्तनमस्ति? किमपि चिन्तनं नास्ति वा?
अन्येषु विषयेषु अपि शीतोष्णस्पर्शः, पृथिव्यामपि कदाचित् शीतः उष्णः भवति न वा?
हा, सत्यम्. स्पर्शः, अस्तु, तर्हि स्पर्शः तु सर्वत्र भवति खलु, पृथ्वी, जलं, तेजः, वायौ अपि स्पर्शः भवति इति सत्यं.
तदर्थं रसः एव विशिष्ट गुणः एव.
वस्तुतः जले रसम् इति भवति, किन्तु सः एव गुणः पुनः पृथिव्यामपि अस्ति. यद्यपि गन्धः इति विशिष्टः गुणः अस्ति पृथिव्यां, तथापि रसमपि आगच्छति, अपि च स्पर्शापि अस्ति पृथिव्यां. तर्हि गुणस्य च इन्द्रियस्य समन्वयः भवति न वा इति प्रश्नः लक्षणवाक्येषु. किमर्थं तथा उक्तम् एतैः इति. किं चिन्तनम्? अस्तु, तर्हि अहमेव किञ्चित् वदामि. तर्हि तत्र शीतस्पर्शवत्यः आपः इत्यत्र विशेषगुणमस्ति शीतस्पर्शः जले, अस्तु, तादृशविशेषगुणः अन्यत्र कुत्रापि नास्ति. उष्णस्पर्शवत्तेजः अपि तथा, रूपरहितस्पर्शवान् वायुः इति अपि तथा. परन्तु लक्षणवाक्यस्य कथनसन्दर्भे किम् इन्द्रियम् अस्य गुणस्य ग्राहकम् इति न उच्यते खलु. तत्र वार्ता का इति चेत् शरीरेन्द्रियविषयभेदात् इति उक्तं. नाम यत्किमपि द्रव्यं भवति तद्द्रव्यं त्रिविधं, शरीरं भवति, इन्द्रियं भवति, अपि च विषयाः भवन्ति. तर्हि इन्द्रियं कीदृशम्, इन्द्रियं स्वयं कीदृशम् इति प्रश्नः अत्र, न तु इन्द्रियं कं गृह्णाति इति. तर्हि कोऽपि प्रश्नं पृच्छति चेत् रसनं कीदृशं द्रव्यम् इति, तत्र उत्तरं किं भवति विद्याशङ्कर् महोदय?
रसनं कीदृशं,
कीदृशं द्रव्यं?
यत् जिह्वाग्रवर्ति इन्द्रियेण ग्राह्यते तद् रसनं.
हा, तद् रसनं. किन्तु अत्र प्रश्नः अस्ति, तत्र नवद्रव्याणि सन्ति खलु, पृथ्वी, जलं, तेज, कस्यां श्रेण्याम् आगच्छति इति प्रश्नः रसनं.
जलस्य गुणविषये
न चिन्तयतु, अत्र प्रश्नः अस्ति कीदृशं द्रव्यम् इति. इन्द्रियमपि द्रव्यम्, इन्द्रियमपि द्रव्यं, तत् कीदृशम् इति प्रश्नः.
मनः एव
गुणग्राहकम् इति, अत्र तु स्पर्शग्राहकं द्रव्यं रसनम् इति. न रस, स्पर्शग्राहकं न,
रसग्राहकं. हा, रसग्राहकम् इति उक्तं खलु, परन्तु तत्र जले विद्यमानः विशिष्टः गुणः शीतस्पर्शः इति. तर्हि प्रश्नः आगतः आसीत् इन्द्रियं शीतस्पर्शग्राहकं त्वक् इति किमर्थं न उक्तम् इति.
मुखेन वयं उष्णस्पर्शमपि ग्रहणं कर्तुम्.
एकनिमिषः, रत्ना भगिनी किम् उक्तवती?
न, अहम् उक्तवती त्वक् मुखेन उष्णस्पर्शमपि वयं ज्ञातुं शक्नुमः अतः इति चिन्तयामि.
हा, अतः इति तु एकमस्ति, परन्तु लक्षणवाक्ये इन्द्रियं स्वयं कीदृशम् इति प्रश्नः इति अवगच्छन्ति वा? शरीरेन्द्रियविषयभेदात् इति उक्तं, नाम जलीयं शरीरं भवति, जलीयम् इन्द्रियं भवति, जलीयं जलीयः विषयः भवति. तर्हि रसनम् इति एकं पदार्थं स्वीकृत्य कस्यां श्रेण्यां स्थापयामः इति प्रश्नः. रसनं, हा, जलं, रसनं स्वयं जलम् इति वार्ता. हा, जलीयद्रव्यम् इति वार्ता. तर्हि तदर्थमेव इन्द्रियाणि तथा सन्ति. यद्यपि शीतस्पर्शः इति विशेषगुणः, तद्ग्राहकम् अत्र न सूचितं, यतोहि सः प्रश्नः नास्ति. शीतस्पर्शः केन गृह्यते इति प्रश्नः नास्ति अत्र. प्रश्नः अस्ति जलीयम् इन्द्रियं किम् इति. अपि च तेजसः लक्षणवाक्ये अपि तैजसम् इन्द्रियं किम् इति प्रश्नः. तैजसम् इन्द्रियं किम्? चक्षुः. हा, इति वार्ता अस्ति. यः कोऽपि चक्षुः इति वदति चेत्, चक्षुः इत्यपि एकः पदार्थः, सः पदार्थः कस्यां श्रेण्याम् आगच्छति इत्युक्ते तेजसः श्रेण्याम् इति.
इत्युक्ते तेजसः जायते चक्षुः, जलेन जायते रसनेन्द्रियम् इति खलु भगिनि?
इति सत्यं भगिनि. यथा वयं चर्चितवन्तः सुवर्णं तैजसं द्रव्यं किमर्थम् इति खलु, तद्वत् तादृशी चर्चा अपेक्षते अत्र. चक्षुः तैजसम् इन्द्रियं नाम तेजसः अंशाः अस्ति चक्षुषु. किमर्थम् इति अग्रे प्रायः चर्चयामः इति कदाचित् महोदयं पृष्टवती अपि, प्रायः अग्रे भविष्यति इति चिन्तयामि. यथा समर्थनं कृतवन्तः सुवर्णं तैजसं द्रव्यम् इति, तद्वत् चक्षुः तैजसम् इन्द्रियम् अथवा रसनं जलीयम् इन्द्रियं किमर्थम् इति प्रायः आगच्छेत्. त्वग् अपि तथा. त्वग् कीदृशम् इन्द्रियम्?
पृथ्वी न, त्वक्कपि स्पर्शः अस्ति.
वायुवीयं, वायुवीयम् इन्द्रियम् अस्ति त्वग् इति. अपि च यथा वयं जानीमः ग्राणम् इति पार्थिवम् इन्द्रियम् अस्ति, पृथिवीलक्षणवाक्ये आगच्छति इति तथा अस्ति.
अत्र तेजसः चक्षुर् इन्द्रियम् इत्युक्ते चक्षुः स्वयं शरीरस्य अवयवः, तत् पृथिव्यां भवति. यत् दर्शनशक्तिः अस्ति तत् एव इन्द्रियं न वा?
सत्यं.
यतोहि चक्षुः भवति परन्तु केचन जनाः न द्रष्टुं शक्यन्ते.
सत्यं. हा, समीचीनम् उदाहरणमस्ति. चक्षुः इति अवयवः, प्रायः नेत्रम् इति वदामः, नो चेत् भ्रमः भवेत्. नेत्रम् इति शरीरावयवः, नेत्रयोः विद्यमानत्वे अपि केचन न द्रष्टुं शक्नुवन्ति, यतोहि चक्षुः इति इन्द्रियं कार्यं न करोति तेषाम् इति. अस्तु, इति एव वक्तव्यम् आसीत्. प्रत्येकम् इन्द्रियं कीदृशम् इति वार्ता अस्ति लक्षणवाक्येषु, न तु कं गुणं गृह्णाति इति. अस्तु, तर्हि इतः अग्रे सरेम. रूपरहितस्पर्शवान् वायुः इति दृष्टवन्तः तत्र 43 पुटे, तत्र वायोः लक्षणे दलद्वयं किमर्थम् इति दृष्टवन्तः. ततः अग्रे गत्वा 45 पुटे सम्बन्धस्य अवच्छेदकत्वम् इति अस्ति. तत्पूर्वमेव वयं दृष्टवन्तः आधेयताः भिन्नभिन्नाः सन्ति, घटः तु एकः एव आधेयः. तर्हि घटत्वावच्छिन्न आधेयता सर्वत्र न कर्तुं शक्नुमः इति कृत्वा सम्बन्धस्य अवच्छेदकत्वं स्वीकृत्य आधेयता कीदृशी इति प्रतिपादितम् आसीत्. तमेव तर्कं स्वीकृत्य तुल्यन्यायात् प्रतियोगिता कीदृशी इति वयं दृष्टवन्तः. समवायसम्बन्धावच्छिन्न प्रतियोगिता इत्यादिकम्, अपि च अन्योन्यभावस्थले घटः पटो न इत्यत्र तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता भवति इति अस्माभिः दृष्टम् अभावप्रसङ्गे. वस्तुतः अयं विचारः अस्मिन् विभागे, द्रव्यनिरूपणविभागे किमर्थं स्थापितः अस्ति इत्यस्य परिशीलनं भवति 48 पुटे. तत्र सभ्यमहोदय अन्तिमवाक्यं पठति वा, ततः आरभ्य.
आं भगिनि, अष्टचत्वारिंशत् पुटे यत् अस्ति प्रकृते.
सत्यं, ततः अग्रे पठतु.
अस्तु, आं भगिनि. प्रकृते आधेयत्वस्थले समवायादिसम्बन्ध्यै घटः कपालादिषु इव शब्दे अपि समवायेन आकाशे कालिकेन काले विषयतासम्बन्धेन स्वविषयकप्रत्यये वर्तते इति बहुविधेयताः शब्दे वर्तन्ते. तासु या समवायसम्बन्धावच्छिन्ना आधेयता तन्निरूपिता अधिकरणतात्वमेव प्रकृते लक्षणम् इति बोधनाय गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थित्या तत्सम्बन्ध अवच्छिन्न आधेयत्वलाभः इति. तथमेव च ज्ञानाधिकरण अधिकरणात्मा इत्यत्रापि अधिकरणपद नैव निवेशप्रयोजनं वक्ष्यते. अस्तु भगिनी, यत् इदानीं पङ्क्ति पठित्वा वदामि.
तथा करोतु, किन्तु पूर्वभूमिकारूपेण वदामि यत् आकाशस्य लक्षणवाक्यं किम् इति चेत् तत्र पञ्चचत्वारिंशतमे पुटे अस्ति, शब्दगुणकम् आकाशं तच्चैकविभु नित्यञ्च इति. अस्तु, तर्हि किञ्चित् किञ्चित् विलक्षणं वाक्यमस्ति खलु, गन्धवती पृथिवी तथा नास्ति, किञ्चित् विलक्षणम् अस्ति, रूपरहितस्पर्शवान् वायुः तदा तथा नास्ति. शब्दगुणकम् आकाशम् इति उक्तं किमर्थं? पौनःपौन्येन गुणः गुणः इति वदनेन शब्दः अन्यतमः गुणः इति आगच्छति. यतोहि कैश्चित् मीमांसकैः अथवा अन्यदार्शनिकैः शब्दः अपि एकः गुणः इति न अङ्गीक्रियते. तदर्थं न्यायिकाः साधयितुम् इच्छन्ति यत् शब्दः अपि गुणः गुणः, तादृशगुणः आकाशे वर्तते इति ते साधयितुम् इच्छति. अस्तु, इति इति सर्वं मनसि निधाय अधुना अग्रे परिशीलयतु महोदय.
आम् आम्, अस्तु भगिनि. प्रकृते आधेयत्वस्थले समवायसम्बन्धैः घटः कपालादेषु इव शब्दे अपि समवायेन आकाशे कालिकेन काले विषयतासम्बन्धेन स्वविषयकप्रत्यये वर्तते इति बहुविधाधेयताः शब्दे वर्तन्ते. आम्, तर्हि अस्माकं यत् उदाहरणम् आसीत् पञ्चचत्वारिंशत् पुटे घटे घटे आधेयता अस्ति परम् अधिकरणता भिन्नभिन्न अस्ति इति संयोगसम्बन्धेन भूतले, समवायसम्बन्धेन कपाले, तादात्म्यसम्बन्धेन स्मस्मिन्, तथा शब्दे अपि शब्दः अपि समवायसम्बन्धेन आकाशे अस्ति, कालिकसम्बन्धेन काले अस्ति, एवं विषयतासम्बन्धेन स्वविषयकप्रत्यये वर्तते. इत्युक्ते शब्दे अपि बहुविध आधेयताः इति शब्दे सन्ति इति प्रथमवाक्यम् अस्ति. तासु इत्युक्ते आधेयतासु या समवायसम्बन्ध अवच्छिन्न आधेयता निरूपिता अधिकरणतावत्त्वम् एव प्रकृते लक्षणम् इति बोधनाय गुणपदम् उत्पात्तम् इत्युक्ते आधेयतासु समवायसम्बन्ध अवच्छिन्न यत् आधेयता अस्ति तन्निरूपिता अधिकरणता प्रकृते लक्षणम् इति बोधनाय गुणपदम् उत्पातम् इत्युक्ते शब्दगुणम् आकाशम् इति लक्षणवाक्ये अस्ति, शब्दगुण आकाशम् हा हा क्षमतां शब्दगुणकम् आकाशं तर्हि तासु इत्युक्ते बहवः आधेयता शब्दे अस्ति खलु, तर्हि तासु समवायसम्बन्धेन आकाशे अस्ति. समवायसम्बन्धेन आकाशे अस्ति इत्युक्ते तं निरूपित इति अत्र लक्षणं ददाति, लक्षणं ददाति. शब्दः इत्युक्ते अन्य एकः गुणः इति न्यायिकाः वदन्ति इति अस्ति भगिनी.
गुणः हा गुणः अस्ति चेत् द्रव्ये केन सम्बन्धेन भवति?
समवायसम्बन्धेन.
हा समवायसम्बन्धेन. तस्य विचारस्य सुदृढतया प्रतिपादनार्थं समवायसम्बन्धस्य उपयोगः क्रियते अत्र. समवायसम्बन्धावच्छिन्न आधेयता निरूपित अधिकरणत्वम् आकाशस्य लक्षणम् इति वक्तुम् इच्छन्ति ते.
आमामाम्, अस्तु. गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थित्या तत्सम्बन्ध्या अवच्छिन्ना आधेयत्वलाभः इति. गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन इति पुनः न अवगच्छामि भगिनि.
इति वयं पूर्वं जानीमः तावदेव गुणगुणिनोः समवायः खलु गुणः शब्दः चेत् गुणि इति आकाशः इति तयोः समवायं समवायसम्बन्धः इति वयं जानीमः पूर्वमेव
अस्तु इत्थमेव इत्थमेव च ज्ञानाधिकरणात्मा
महोदय तथा अग्रे पठतु तत्र गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव तत्र अग्रे किम् अस्ति
अस्तु अस्तु गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थित्या तत्सम्बन्ध्या तत्सम्बन्ध अवच्छिन्न आधेयत्वलाभः इति इत्युक्ते गुणगुणिनोः
इति एव लाभः तस्य गुणगुणिनोः समवायं स्वीकृत्य आधेयता अवच्छिन्ना भवति चेत् तदा तन्निरूपित आधेयता क्षम्यताम् आधेयता निरूपित अधिकरणत्वम् आकाशस्य लक्षणम् इति आगच्छति इति ते वदन्ति तावदेव
आमामाम् इत्थमेव च ज्ञानम् अधिकरणम् आत्मा इत्यत्रापि अधिकरणपद निवशप्रयोजनं वक्ष्यते
इत्युक्ते अग्रे
अस्तु अस्तु
ज्ञानस्य विषये ज्ञानम् इति गुणः कुत्र वर्तते
आत्मनि
आत्मनि तदर्थं ज्ञानाधिकरणम् आत्मा इति उक्तं भिन्नरीत्या लक्षणवाक्यं रचितं कारणमस्ति एतदेव आधारादेयभावः समवायेन भवति इति साधनम् अस्तु अग्रे प्रश्नः कः अस्ति अग्रिमवाक्यं पठतु
भगिनी एकः प्रश्नः ज्ञानम् इति गुणम् आत्मनि वर्तते इति उक्तवती खलु
सत्यं
ज्ञानं बुद्धि समानमेव वा
आमां सत्यम्
अस्तु
तत्र चतुर्विंशतिगुणाः सन्ति खलु तस्यां श्रेण्यां बुद्धिः इति यद् यः गुणः अस्ति सः एव ज्ञानम्
अहम् इति चिन्तितवान् ज्ञानमिति बुद्धौ तिष्ठति इति
न बुद्धौ इति न पर्यायवाचि शब्दः तावदेव ज्ञानं बुद्धिः
अस्तु इदानीम् अवगतं भगिनि
अस्तु समीचीनम् अग्रे महोदय
लक्षणवाक्येन आकाशे ज्ञाते तत् किं पृथिव्यादिवत् नाना उत एकमिति जिज्ञासा जिज्ञासा यामः जिज्ञासायामः तच्चैकम् इति अयमाशयः लक्षणवाक्येन आकाशे ज्ञाते तत् किं पृथिव्यादिवत् नाना उत एकमिति जिज्ञासा
लक्षणवाक्ये पृथिव्याः पृथिवी त्रिविधा इति सर्वम् आसीत् खलु शरीरेन्द्रियविषयभेदात् इति पुनस्त्रिविधा इत्यादिकं दृष्टं लक्षणवाक्येषु तथा नास्ति आकाशस्य लक्षणवाक्ये तच्च एकम् इति उक्तं तर्हि कथं कथं निर्णीतवन्तः एकम् इत्यस्य विषये चर्चा अस्ति अग्रे अस्तु समीचीनम् तर्हि अस्य चर्चार्थं नाम आकाशः कथं सिद्ध्यति आकाशम् अथवा आकाशः उभौ अपि साधु इति भाति तर्हि आकाशं कथं सिद्ध्यति द्रव्यरूपेण कथं ते निर्णीतवन्तः अन्यतमद्रव्यमस्ति आकाशः इति सर्वं ज्ञातुं गुणस्य विषये किञ्चित् ज्ञातव्यं भवति अत्र अग्रिमविषयः अस्ति प्रतिनियतग्राह्याः गुणाः इति प्रतिनियतग्राह्याः इत्युक्ते एकैकस्य गुणस्य एकमेव इन्द्रिय महोदय प्रश्नः अस्ति वा कस्यचित् अस्तु एकैकस्य इन्द्रियस्य एकैकः गुणः एकैकस्य गुणस्य एकैकम् एव इन्द्रियं ग्राहकम् इति प्रतिनियतग्राह्याः इति उच्यते तर्हि एका आवली अस्ति अग्रे बालसुब्रह्मण्यमहोदय पठति वा आवलीं केन इन्द्रियेण कः गुणः ग्राह्यः इति आवली अस्ति. बालसुब्रह्मण्यमहोदय
श्रूयते महोदय?
अधुना श्रूयते, वदतु.
रूपम् इन्द्रियः चक्षुः, रसः रसनं, गन्धः घ्राणं, स्पर्शः त्वक्, शब्दः श्रोत्रं, षट् ज्ञानादि आत्मगुणाः मनः.
अस्तु, तर्हि रूपं केन इन्द्रियेण गृह्यते?
रूपम् इति चक्षुः इति इन्द्रियेण गृह्यते.
इदानीं रूपस्य ग्राहकम् अन्यत् किमपि इन्द्रियमस्ति वा?
रूपस्य रूपम् इति चक्षुः केवलं चक्षुः एव,
केवलं चक्षु
नास्ति, रसनं नास्ति, जिह्वा नास्ति, तस्मात् केवलं चक्षुः एव.
चक्षुः एव अस्ति खलु, तद्वद् रसस्य ग्राहकं किम्?
रसस्य ग्राहकं रसनम् इति चेत् जिह्वा.
हा, जिह्वाग्रवर्ति.
जिह्वाग्रवर्ति.
गन्धस्य ग्राणं,
गन्धस्य ग्राणं नासग्रवर्ति. स्पर्शः इति त्वक्, शब्दः श्रोत्रम्.
श्रोत्रम् इति अस्ति, एकमेव इन्द्रियमस्ति एतेषां गुणानां खलु, अन्यानि इन्द्रियाणि न सन्ति एतेषां ग्रहणार्थम्. इत्युक्ते प्रायः तादृशगुणाः सन्ति येषां ग्रहणम् एकाधिक इन्द्रियेण भवति इति स्यात् इति मम चिन्तनमस्ति. अन्ये किं चिन्तयन्ति? वयं सर्वान् गुणान् न दृष्टवन्तः एतावत्पर्यन्तम्. भगिनी किं, सरला भगिनी? किमपि उक्तवती वा?
पुनः वदतु किमपि उक्तवती भवती.
अत्र रूपरसगन्धस्पर्शशब्दाः अपि च आत्मनः षड् ज्ञानात्मगुणाः, नाम तत्र आत्मनि वस्तुतः नवगुणाः सन्ति, तेषु ज्ञानं, सुखदुःख, इच्छा, द्वेषः, प्रयत्नः, इमे गुणाः केवलं मनसा गृह्यन्ते. अस्तु, इत्युक्ते एतेषां गुणानां ग्राहकम् एकमेव इन्द्रियं मनः, यथा शब्दस्य ग्राहकम् एकमेव श्रोत्रं तथा. तर्हि मम प्रश्नः आसीत् अत्र, तर्हि प्रायः अन्ये गुणाः स्युः ये एकाधिक इन्द्रियेण गृह्यन्ते इति खलु?
अतः एव प्रायः तत्र प्रतिनियतग्राह्याः गुणाः इति, तत्र केवलम् अनेन चक्षु इन्द्रियेण एव तत्र ग्राहयितुं शक्यते इति प्रायः तत्र दत्तमस्ति इति मम अपि अवगमनं. केवलं मनः विहाय यत्र अन्यगुणाः अपि तत्र मनसा ग्राहयितुं शक्यते, परन्तु अन्ये ये गुणाः अत्र दत्तवन्तः ते सर्वे केवलं रूपं चक्षुषा एव, रसः जिह्वया एव, तथा एव तत्र रसनेन इति, तथा एव तत्र इति. सर्वेषां गुणानां कृते एकः प्रतिनिधिः अस्ति, सः एव प्रतिनिधिः तत्र, तेन एव ग्राह्यतुं शक्यते इति तत्र अवगमनम्.
वयं सर्वान् गुणान् न दृष्टवन्तः एतावत् पर्यन्तं, किन्तु हा तथा अस्ति स्थितिः इति भाति. अपि च सङ्ख्या इति विषये चिन्तयामश्चेत् तत्र सङ्ख्या इति गुणः केन केन ग्राह्यः भवति? हा, इति कारणमस्ति, किन्तु इन्द्रियाणां विषये चिन्तयामः. चक्षुषा इति उत्तरम् आगतं, तत् समीचीनम्.
चक्षुषा मनसा एव, मनसा अपि
मनसः प्रायः यतोहि अवगन्तुं शक्नुमः इति कृत्वा. अन्यत् किम्? सत्यं सत्यं त्वचा अपि गृह्यते संख्यानामकगुणः इति. अस्तु तर्हि इति एकम् उदाहरणम् अस्ति, परन्तु एते प्रतिनियतग्राह्याः इति उच्यन्ते. अस्तु इतः अग्रे सरेम. हा इति वार्ता अस्ति, चक्षुस् त्वं मनांसि गुण अग्रे अग्रिमपुटं पश्यन्तु, पञ्चाशत्तमे पुटे प्रथमपरिच्छेदं पठति वा निरञ्जनमहोदय पठति वा?
तेषु आरभ्य तत्र आरभ्य वा?
सत्यं महोदय.
तेषु चक्षुस्त्वङ्गन्नांसि गुणस्येव तदाश्रयद्रव्यस्यापि प्रत्यक्षं जनयन्ति. चक्षुषा रूपस्य इव तदाश्रयस्य घटाधेरपि प्रत्यक्षोत्पादनात् भवति हि उन्मीलिनयनस्य पुंसः नीलो घटः इति प्रत्यक्षात्मकं ज्ञानम्. एवमेव त्वगिन्द्रियमनसोः अपि आश्रयग्राहकत्वं बोध्यम्. अन्येषु त्रिषु इन्द्रियेषु रसनेन्द्रियग्राणेन्द्रिययोः गुणमात्रग्राहकता न तु द्रव्यमपि ताभ्यां गृह्यते. यद्यपि गुडः चक्षुषा गृह्यते इति न सः अतीन्द्रियः, तथापि ग्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. घ्राणं गन्धस्य रसना रसस्य च जनयति प्रत्यक्षम्. पङ्क्तिशः पुनरेकवारं पठित्वा वदामि. तेषु चक्षुस्त्वङ्गमनांसि चक्षुः स्वग् मनांसि गुणस्येव तदाश्रयद्रव्यस्यापि प्रत्यक्षं जनयति. तदाश्रयद्रव्यस्यापि प्रत्यक्षं जनयति गुणस्येव तदाश्रयद्रव्यस्यापि प्रत्यक्षं जनयति
नाम तत्र गुणस्य इव इति अस्ति.
हा गुणस्य इव चक्षुः त्वक् मनांसि गुणस्य इव तदाश्रयद्रव्यस्यापि प्रत्यक्षं जनयन्ति. गुणस्य कारणं गुणस्य जनकः गुणी तादृश अर्थः अत्र वा?
तस्य चक्षुः गुणं गृह्णाति. अस्तु इदानीं सेवफलमस्ति, तस्य रक्तरूपं चक्षुः गृह्णाति, किन्तु तद् रक्तरूपं कुत्र आश्रितमस्ति? आश्रयः कः?
रक्तरूपं
फले खलु?
फले. आम् 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 फले.
इति कृत्वा चक्षुषा यदा वयं पश्यामः तदा गुणस्य बोधः भवति, अपि च कस्मिन् द्रव्ये.
ओ अस्ति, हा तस्य ज्ञानमपि भवति. अस्तु हा चक्षुषा इदानीम् अवगच्छामि. चक्षुषा केवलं गुणः केवलं गुणस्य ज्ञानः न, किन्तु गुणिनः ज्ञानः अपि भवति इति.
सत्यम्.
अस्तु अस्तु हा इदानीम् अवगच्छामि. धन्यवादः भगिनि. हा चक्षुषा रूपस्य इव तदाश्रयस्य घटाधेरपि प्रत्यक्षोत्पादनात्. ओके इदानीं चक्षुषा यद् भवती उक्तवती तदेव अस्ति. रूपः अपि रूपस्य आश्रयः घटः यदि इत्यादि यत् अस्ति तस्य प्रत्यक्षज्ञानं भवति चक्षुषा. भवति हि उन्मीलितनयनस्य पुंसः नीलो घटः इति प्रत्यक्षात्मकं ज्ञानम्. घटः नीलः इति तत्रापि प्रत्यक्षात्मकं ज्ञानं भवति उन्मीलितनयनस्य. चक्षुषा इति एवमेव त्वगिन्द्रियमनसोः अपि आश्रयग्राहकत्वं बोध्यं तादृशः अपि अस्ति त्वगिन्द्रियस्य अपि मनसः तत्र केवलं गुणस्य ग्राह्यं केवलं गुणं न ग्राह्यते किन्तु गुणस्य आश्रयम् अपि तस्य ज्ञानम् अपि भवति. अन्येषु त्रिषु इन्द्रियेषु रसनेन्द्रियग्राणेन्द्रिययोः गुणमात्रग्राहकता हा किन्तु अन्य अन्येषु त्रिषु इन्द्रियेषु इदानीं चक्षुः त्वग् अपि मनसः मनः इति उक्तं चक्षुः त्वग् मनः अश्रोत्रं घ्राणम् अपि रसनं तत्र केवलं गुणस्य ज्ञानं भवति न तु गुणाश्रयद्रव्यस्य न तु द्रव्यमपि ताभ्यां गृह्यते. हा यद्यपि गुडः
इत्युक्ते किञ्चित् किञ्चित् चिन्तनं कुर्मः रसम् इति अस्तु किमपि खादामश्चेत् तत्र रसः एव ज्ञायते खलु.
आम्
यद्यपि मधुरता गुडे अपि स्यात् किमपि पायसे लड्डुके अपि स्यात् किन्तु मधुरता ज्ञायते कीदृशपदार्थः इति प्रायः न ज्ञातुं
शक्नुमः. सत्यम् अपि श्रोत्रस्य अपि केवलं शृण्मः किन्तु आश्रयस्य ज्ञानं सर्वदा न भवति.
सत्यम्
अस्तु हा यद्यपि गुडः चक्षुषा गृह्यते इति न स अतीन्द्रियः तथापि ग्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. यद्यपि गुडः चक्षुषा गृह्यते इति न सः अतीन्द्रियः हा अतः गुडः चक्षुषा गृह्यते अतः गुडः अतीन्द्रियः न किन्तु हा गुडस्य रसः रसनेन्द्रियेण ज्ञायते किन्तु गुडः न ज्ञायते. गुडः अन्यत् इन्द्रियेण ज्ञातुं शक्नुमः गुडः चक्षुषा गृह्यते तत्र आश्रयः अत्र वक्तुम् इच्छन्ति रसेन्द्रियग्राणेन्द्रिययोः गुणमात्रग्राहकता अस्ति न तु द्रव्यस्य ज्ञानं तत्र तत्र न भवति. एतत् स्थितिः नास्ति तत् द्रव्यस्य ज्ञानम् इन्द्रियेण न भवति तादृशः नास्ति अन्येन इन्द्रियेण ज्ञानं भवति किन्तु तेन इन्द्रियेण एव आश्रयस्य ज्ञानं न भवति इति. रसनेन्द्रियेण गुणस्य ज्ञानं भवति किन्तु अन्येन इन्द्रियेण आश्रयस्य ज्ञानं भवितुम् अर्हति इति.
भगिनि तत्र परन्तु प्रत्यक्षज्ञानं किल तत्र अन्य अनुमानं तु भवितुम् अर्हति परन्तु तत्र प्रत्यक्षे यथा वयं चक्षुषा तदाश्रयद्रव्यस्य अपि प्रत्यक्षं जनयति तत्रापि तत्र केवलं गुणमात्रग्राहता प्रत्यक्षं द्रव्यं न जनयति परन्तु अन्यरूपेण प्रायः ग्राह्यतुं शक्यते इदानीं रसनेन प्रायः गुडः यः कोऽपि स्थापयति प्रायः अस्माभिः अनुमानं
सत्यम् अनुमानं तु भवति गुडः गुडस्य रुचिः ज्ञायते चेत् पूर्वमेव अनुमानं भवितुम् अर्हति परन्तु प्रत्यक्षात्मकं ज्ञानं न भवति एव
केवलं
हा इन्द्रियान्तरं स्यात् तदा एव भवति इति अस्ति. निरञ्जनमहोदय अन्यत् किमपि
तत्र अन्तिमवाक्यं घ्राणं गन्धस्य रसना रसस्य च जनयति प्रत्यक्षं
तावदेव अस्ति गुणस्यैव जनयति प्रत्यक्षं न तु तदाश्रितद्रव्यस्य विशारा इन्द्रियान्तरम् आवश्यकं द्रव्यस्य ज्ञानार्थम् इति. अत्र प्रत्यक्षम् इत्युक्ते किम् इत्यस्य विषये किञ्चित् विवादः अपि अस्ति. इत्युक्ते एकस्मिन् पक्षे वदन्ति यद् प्रत्यक्षम् इत्युक्ते यस्य रूपं भवति तदेव प्रत्यक्षम् इति, किन्तु अत्र तु साधितवन्तः यत् त्वचा त्वचा किं किं गृह्यते महोदय? तत्र कोष्टकं पश्यतु, तत्र श्रेणीद्वयमस्ति खलु. त्वग् इति कस्यां श्रेण्याम् अस्ति? अधोभागे एव अस्ति. हा, द्रव्यगुणोभयग्राहकाणि गुणमात्रग्राहकाणि इति श्रेणीद्वयं. तत्र त्वक् इति कुत्र आगच्छति?
द्रव्यगुणोभयग्राहकाणि
नाम द्रव्यस्य ज्ञानमपि जनयति, स्पर्शस्य ज्ञानमपि इति. किन्तु त्वग् इति चक्षु नास्ति, इत्युक्ते रूपं न गृह्णाति, किन्तु प्रत्यक्षज्ञानं जनयति खलु. अनुमानात्मकज्ञानं नास्ति, प्रत्यक्षत्वेन जानीमः. उत्पीठिकां स्पृशामि चेत् तत्र अस्तु, उत्पीठिका अस्ति, तस्य स्पर्शः अनुष्णाशीतस्पर्शः इति. हा, तर्हि प्रत्यक्षम् इत्युक्ते किम् इत्यस्य विषये किञ्चित् विवादः अस्ति. परन्तु यद् अनुमानेन न सम्भवति, साक्षात् ज्ञानं भवति, तद् प्रत्यक्षम् इति चिन्तयामः अधुना. पुरातननैयायिकैः रूपमपि अपेक्षितम् इति उच्यते. अस्तु
भगिनि, तत्र प्रायः निश्चितया न वक्तुं शक्नुमः खलु, त्वचा रूपमपि तदाश्रितद्रव्यमपि गृह्यते इति. तत्र गजस्य कथा तु प्रसिद्धा
इति अहमपि चिन्तितवती तस्मिन् दिने. परन्तु अहं चिन्तयामि यद् स्पर्शेण द्रव्यान्तरभेदः ज्ञायते खलु, इत्युक्ते इदं जलं नास्ति, इदं पृथ्वी नास्ति, इदं तेजः, तावत्पर्यन्तम् अवगन्तुं शक्नुमः इत्येव तेषाम् आशयः इति चिन्तयामि. सत्यम्. अस्तु, इति अस्ति. तर्हि
प्रश्नः, अतीन्द्रियः इत्युक्ते इन्द्रियात् शक्तेः बहिः इति वा?
सत्यम्.
अस्तु,
अपरमेकः प्रश्नः, प्रत्यक्षम् इत्युक्ते इन्द्रियसन्निकर्षज्ञानम् इति प्रत्यक्षं खलु?
इति सत्यं महोदय.
तर्हि सर्वेन्द्रियाणां यत् वयं जानीमः तत् सर्वं प्रत्यक्षमेव खलु?
हां, सर्वं प्रत्यक्षमेव, किन्तु तत् प्रत्यक्षात्मकं ज्ञानं कीदृशम् इति प्रश्नः अत्र. अस्तु, तद् प्रत्यक्षात्मकज्ञानेन केवलं गुणस्य प्रत्यक्षं भवति वा अथवा द्रव्यस्यापि, गुणाश्रयद्रव्यस्यापि प्रत्यक्षं भवति वा इति प्रश्नः.
प्रश्नः अवगतमेव, परन्तु इन्द्रियसन्निकर्षज्ञानं प्रत्यक्षम् इति नवनैयायिकैः सिद्धान्तः वा?
सत्यम् इति महोदयेन उक्तम् आसीत्. प्राचीनैः प्रत्यक्षम् इत्युक्ते केवलं चक्षुषा इति अस्ति, नव्यैः भवान् यथा उक्तवान् तथा अस्ति. अस्तु, तद् प्राचीनानां मतम् आधारीकृत्य अग्रिमविषयः अस्ति, के प्रत्यक्षयोग्याः, के न इति पश्येम. अस्तु, तर्हि पूर्वम् अतीन्द्रियः इति प्रश्नः इति शब्दः आगतः आसीत्. तर्हि आकाशः अपि अतीन्द्रियः कथम् इति अग्रे परिशीलयिष्यामः. तत्र नीता भगिनी पठति वा अग्रे शिष्टम्?
आं भगिनि, शिष्टं श्रोत्रेन्द्रियं कर्णपुटेन पृथक् कृतः आकाशदेश एव, तत्तु शब्दस्यैव प्रत्यक्षं जनयति, न तु आश्रयस्य. कुतः आश्रयः तस्य आकाशस्य अतीन्द्रियत्वात् आश्रयस्य आकाशस्य अतीन्द्रियत्वात् यस्मिन् हि परिमाण अतिरिक्त परिमाणम् उद्भूतरूपम् च भवति तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति न अन्यस्य इति च निर्णीतम्. शिष्टं प्रयत्नं करोमि भगिनि. शिष्टं श्रोत्रेन्द्रियं कर्णपुटेन पृथक् कृतः.
शिष्टम् इत्युक्ते अवशिष्टं तावदेव. उपरि ग्राणरसन इत्यनयोः विषये चर्चा यदा जाता तत्र वयं दृष्टवन्तः यत् ग्राणरसनयोः कार्यं किं गुणस्य प्रत्यक्षज्ञानम् इति कार्यम्. परन्तु तदाश्रितद्रव्यस्य द्रव्यस्य ज्ञानम् इन्द्रियान्तरेण भवति. इत्युक्ते तत्र गुडस्य उदाहरणं पश्यतु. गुडे रसः अस्ति चेत् रसं रसना गृह्णाति, रसनम् इति गृह्णाति. परन्तु चक्षुषा गुडः इति द्रव्यम् अपि ग्रहीतुं शक्नुमः खलु. हा, किन्तु श्रोत्रेन्द्रियम् इति यदस्ति, श्रोत्रेन्द्रियं कुत्र अस्ति? प्रथमवाक्ये उक्तं
श्रोत्रेन्द्रियं कर्णपुटेन, कर्णे
कर्णपुटेन पृथक् कृतः श्रोत्रेन्द्रियम् आकाशदेशे एव इति उक्तं खलु.
आम् आम् आम्.
हा, इत्युक्ते श्रोत्रेन्द्रियम् इति इन्द्रियम् आकाशः.
अस्तु.
यथा रसनम् इति जलीयम् इन्द्रियं, घ्राणम् इति पार्थिवम् इन्द्रियं, तद्वत्
अस्तु.
श्रोत्रम् इति आकाशसम्बद्ध इन्द्रियम्, आकाशद्रव्यमेव श्रोत्रेन्द्रियम्. अत्रापि श्रोत्रेन्द्रियम् इति साक्षात् कर्णः इति नास्ति. कर्णपुटेन अथवा इयर् ड्रम् इति यद् पार्थिववस्तु अस्ति तेन पृथक् कृतः आकाशदेशः, तावदेव अस्ति श्रोत्रेन्द्रियम्.
अस्तु भगिनि.
अग्रे
तत्तु शब्दस्यैव प्रत्यक्षं जनयति. श्रोत्रं शब्देन
श्रोत्रं शब्दस्य प्रत्यक्षं जनयति.
न तु आश्रयस्य.
शब्दस्य आश्रयः कः? भगिनि
श्रोत्रम्. आमां भगिनि, शब्दस्य श्रोत्रम्.
इदानीं गन्धस्य आश्रयः कः?
पृथ्वी.
पृथ्वी. शैत्यस्पर्शः तस्य आश्रयः कः?
जलम्.
जलम्. उष्णस्पर्शस्य?
तेजः.
तेजः. अपि च वायोः अपि विलक्षणस्पर्शः अस्ति. तद्वद् शब्दः इति गुणः तस्य आश्रयः कः? सत्यम्, आकाशः. अत्र उक्तमस्ति यद् श्रोत्रं शब्दस्य प्रत्यक्षं जनयति. श्रोत्रेण शब्दं शृणुमः, परन्तु आकाशः न ज्ञातुं शक्नुमः खलु.
अस्तु. आम् 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 आम्,
सत्यम्. अग्रे पठतु.
न तु आश्रयस्य. कुतः आश्रयस्य आकाशस्य अतीन्द्रियत्वात्
इत्युक्ते पूर्वस्मिन् परिच्छेदे गुडस्य प्रत्यक्षम् अभवत् चक्षुषा. परन्तु आकाशस्य तादृशी व्यवस्था एव नास्ति. केनचिदपि इन्द्रियेण आकाशः न गृह्यः ग्राह्यः इति. तर्हि आकाशः अतीन्द्रियः इति तैः उच्यते. तर्हि आकाशम् इति द्रव्यं कथम् आगतम् इत्युक्ते अनुमानेन इति एव वक्तव्यं भवति. शब्दः अस्ति, शब्दस्य आश्रयः कोऽपि स्यात्, कोऽपि पदार्थः. शब्दस्य आश्रयः न पृथ्वी, न जलं, न तेजः, न वायुः. तर्हि किम् अन्यतमं द्रव्यं भवेत् आकाशः इति कृत्वा एव आकाशं साधयन्ति अनुमानेन. आकाशस्य न केनापि इन्द्रियेण प्रत्यक्षं भवति इति. अस्तु, अग्रे पठतु. अग्रे भवती यद् पठति तद् प्राचीनानां मतमस्ति. पठतु.
यस्मिन् हि परमाणुपरिमाण अतिरिक्तपरिमाणम् उद्भूतरूपं च भवति तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति न अन्यस्य इति च निर्णीतम्.
किं बुद्धं भगिनि?
यस्मिन् हि परमाणु परिमाण इत्युक्ते परमाणु इत्युक्ते बहु
लघुतम निरवयवी
आम् परिमाण इत्युक्ते सैज् परमाणु परिमाण अतिरिक्तपरिमाणम् उद्भूतरूपम् अतिरिक्तपरिमाणम् उद्भूतरूपम्
परमाणुपरिमाण इत्युक्ते भवती उक्तवती एव परमाणोः सैज़् इति. अस्तु, तादृश सैज़् अथवा परिमाणम् अतिरिच्य यत्किमपि परिमाणं भवति कस्यचित् वस्तुनः अपि च तस्यैव वस्तुनः उद्भूतरूपमपि भवति चेत् तदा एव किं भवति?
द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति.
हा, समीचीनम्. परमाणुपरिमाणातिरिक्तपरिमाणम् उद्भूतरूपम् इति नियमद्वयम् अस्ति प्रत्यक्षार्थं. तादृशवस्तुनः एव बहिरेन्द्रियेण प्रत्यक्षं भवति इति प्राचीनाः वदन्ति. तदाधारेण तत्र चित्रमस्ति अधोभागे, किञ्चित् परिशीलयतु भगिनि.
घटादयः
घटादयः इति अस्ति. घटादीनां किं किम् अस्ति अत्र उपरितने भागे किम् अस्ति?
उद्भूतरूपं परमाणु परिमाण अतिरिक्तपरिमाणम्
अस्ति खलु?
आम्.
तर्हि नियमद्वयमपि सत्यम्. उद्भूतरूपं नाम उत्कटं सम्यक् दृश्यमानं तादृशरूपमपि अस्ति घटपटादीनां. परमाणुपरिमाण अतिरिक्तपरिमाणम् अस्ति, परमाणुपरिमाणं नास्ति इति अर्थः. तावान् लघुः नास्ति खलु घटः इति वार्ता अस्ति. तादृशद्रव्याणामेव प्रत्यक्षयोग्यता भवति. तर्हि पश्येम कुत्र कुत्र तादृशी प्रत्यक्षयोग्यता अस्ति इति अग्रिमविषयः आगच्छति. अस्तु, अत्र मनसि भवेत् यत् तत्र उद्भूतरूपम् इत्युक्ते सम्यक्तया दृश्यमानम्, अनुद्भूतरूपम् इत्युक्ते रूपम् अस्ति किन्तु न प्रकटम् अथवा न उत्कटम् इति विषयद्वयं मनसि भवेत्. अनेन आधारेण अग्रे परिशीलयिष्यामः. अस्तु, तर्हि परमाणुपरिमाणम् इति उक्तं, तद् किम् इति किञ्चित् परिशीलयामः. विद्याशङ्करमहोदय, तत्र द्विपञ्चाशत्तमे पुटे द्विपञ्चाशत्तमे पुटे अन्तिमपरिच्छेदं पठति वा?
सङ्ग्रहे यद्यपि सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते तथापि आश्रय अनुरोधेन अन्यः अपि विभागः कर्तव्यः भवति, स च अणुपरिमाणं परममहत्परिमाणं मध्यमपरिमाणम्. चतुर्विधानि परिमाणानि प्रायः अग्रे आयास्यति. आश्रय अनुरोधेन अन्यः अपि विभागः कति परिमाणानि सन्ति इति प्रश्नः अस्ति चेत् त्रिविधा परिमाणानि इति अत्र उच्यते, अणुपरिमाणं परममहत् महत्परिमाणं मध्यमपरिमाणम्. अणुपरिमाणम् इत्युक्ते अतिलघु, परममहत् प्रायः इत्युक्ते अतिबृहत्, तयोः मध्ये मध्यमपरिमाणम्
इति वार्ता अस्ति. अग्रिमकोष्टकं परिशीलयतु.
प्रथम कालं तत्र परिमाणुपरिमाणम् अस्ति. तत्र पृथिव्याधिचतुष्टस्य परमाणवः, ये परमाणवः सन्ति पृथिव्याधिचतुष्ट, पृथिवी, जलः,
तेजः, वायुः,
तेजः वायुः, तेषां परमाणवः द्वि अणुकानि च परमाणुपरिमाणं, मनांसि अपि परमाणुपरिमाणं. परममहत्परिमाणं यस्य अस्ति आकाशः, कालः, दिक् जीवाः ईश्वरः. मध्यमपरिमाणं घटादय घटपटादयः पृथिव्याधि चतुष्टस्य विभागग्रन्थे शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि. ये पृथिव्याधि चतुष्ट द्रव्याणां विभागग्रन्थे शरीरेन्द्रियविषयभेदात् ये इन्द्रियाणां ग्राह्यन्ते ते मध्यमपरिमाणगणे इति सन्ति.
समीचीनं. शरीरम् इन्द्रियम् अपि च विषयाः ये केऽपि भवन्ति, पृथ्वी, जलं, तेजः, वायोः इत्येषां, तेषां मध्यमपरिमाणं. वस्तुतः अत्र जन्यं जन्यमिति यत्किमपि वदामः, घटः जायते खलु, तद्वत् पटः जायते, लेखनी जायते, तेषां सर्वेषां मध्यमपरिमाणम्. परन्तु आकाशकालदिग्जीवाः ईश्वर, तस्य विषये तथा वक्तुं शक्नुमः वा?
ते विभूद्रव्याः.
हा विभु, हा विभुद्रव्याणि
नित्यः च.
सत्यं,
नित्याः अपि.
हा नित्यं च विभुद्रव्याणि, तेषां परममहत् परिमाणम्. अधुना परमाणुपरिमाणमिति किञ्चित् परिशीलयतु, तत्र किं किम् अस्ति?
तत्र द्रव्याणां चतुर्विधद्रव्याणां ये परमाणवः सन्ति ते तत्र अन्तर्भूताः, अपि च द्वि अणुकानि, अपि च मनः.
हा मनः इति नित्यद्रव्यं यथा आकाशः कालः, मनः अपि नित्यद्रव्यं, परन्तु मनसः परमाणुपरिमाणमेव. तर्हि किमर्थं तथा स्यात् इति चिन्तनमस्ति वा किमपि?
मनः आत्मना ग्राह्यन्ते इति वा? मनसि किम् अस्ति यत् तत् प्रत्यक्ष जानीमः न वा? सुखदुःख एवं सर्वम्
इत्युक्ते अन्येषां किमपि चिन्तनं मनसः किमर्थं परमाणुपरिमाणम् इति?
तत्र प्रत्यक्षं नास्ति भगिनि, इत्युक्ते द्रष्टुं न शक्नुमः यथा परमाणु एवं द्वयाणुकं.
तर्हि द्रष्टुं न शक्नुमः इत्युक्ते उद्भूतरूपं न भवति इति अर्थः. परन्तु अत्र विचारः अस्ति यत् किमर्थं मनः परमाणुपरिमाणे स्थापितम् इति.
मम चिन्तनमस्ति मनः मनः विभजनं न भवति खलु?
मनः सत्यं, प्रत्येकं मनसः विभजनं नास्ति इत्युक्ते अवयवाः न सन्ति इति खलु महोदय भवतः विवक्षा? हा इति सत्यं. परमाणूनामपि तादृशी एव स्थितिः, अतिलघु अपि च विभजनं नास्ति इति.
तर्हि एव मनः परमाणुरूपम् अस्ति.
हा परन्तु आकाशस्य अपि विभजनं न अर्हति खलु, आकाशः एकः एव निरवयवी, कालः अपि निरवयवी, दिक् अपि निरवयवी.
किन्तु मनः एकत्र तिष्ठति एकस्मिन् काले.
सत्यं. हा इति उत्तरम् अस्ति. मनः यदि परममहत् स्यात् अथवा आत्मा इति परममहत् परिमाणवत् द्रव्यं खलु जीवाः ईश्वरः. आत्मनः इन्द्रियमस्ति मनः, यद्यपि आत्मनः इन्द्रियमस्ति मनः तथापि तस्य परमाणुपरिमाणं, नो चेत् मम मनसि यद् ज्ञानम् अस्ति तद् हा भवता मनसि अपि स्यात्, तत् सर्वं सर्वे सर्वं ज्ञातुं शक्नुमः, सर्वज्ञाः भवामः, तथा तु नास्ति खलु. तर्हि हा एकं जीवे एकः मनः इति तु सत्यं, तथापि महत्परिमाणं परममहत्परिमाणं किमर्थं नास्ति इति प्रश्नः आसीत्. तत्र अतीव लघुपरिमाणमेव स्वीक्रियते मनसः. अस्तु, वेङ्कटेश् महोदय किमपि उक्तवान्?
इदानीं भवती यत् उक्तवती तत्र यद्यपि मनः तत्र प्रत्येकस्य आत्मनि वर्तते, परममहत्परिमाणं तु भवितुं नार्हति. मध्यमपरिमाणमपि यत् भवती उक्तवती मध्यमपरिमाणम् इत्युक्ते यत् जायते, उदाहरणं घटपटादयः, तथा मनांसि जायते. यद्यपि प्रत्येकस्य आत्मनि वर्तते तथापि यदा सृष्टिः भवति तत्र मनः जायते, अस्माभिः न क्रियते मनः इति इन्द्रियं. तर्हि तत्र एव तस्य स्थितिः तत्रैव भवितुम् अर्हति. परममहत्परिमाणं तु नास्ति, मध्यमपरिमाणम् अपि न भवितुमर्हति इति एकविधविचारः भवितुमर्हति.
हा समीचीनम् इति सारांशः अस्ति. मध्यमपरिमाणं भवति चेत् घटपटादिवत् जन्यत्वम् आगच्छति मनसि, जन्यत्वम् आगच्छति चेत् नित्यत्वं नश्यति. तद् न स्यात् तर्हि मध्यमपरिमाणवत् नास्ति मनः. पुनः परममहत्परिमाणं नास्ति यतोहि तथा चेत् वयं सर्वे सर्वज्ञाः भवेम, तदपि न सत्यम्. अपि च ज्ञानं क्षणिकम् इति उच्यते. ज्ञानम् इति कालरूपेण पश्यामश्चेत् ज्ञानमेव अतीव लघु पदार्थः, क्षणिकमस्ति ज्ञानम्. एकस्मिन् क्षणे यद् ज्ञानमस्ति तद् अपरस्मिन् क्षणे नास्ति. इदानीं नीलो घटः इति नीलं घटं पश्यामश्चेत् तत्रापि आहत्य नीलो घटः इति ज्ञानं, किन्तु क्षणिकं ज्ञानरूपेण नीलत्वं घटत्वम् इति प्रत्येकस्मिन् क्षणे भवति. तादृशलघु लघु ज्ञानस्य ग्राहकम् इति मनः परमाणुपरिमाणम् एव इति आगच्छति. अस्तु, तर्हि आहत्य श्रेणित्रयमस्ति परिमाणस्य. तर्हि विद्याशङ्करमहोदय, सारांशत्वेन वदतु परमाणुपरिमाणातिरिक्तम् इत्युक्ते.
परमाणुपरिमाणं विहाय इत्युक्ते परममहत्परिमाणं वा मध्यमपरिमाणं वा,
ते द्वे परिमाणे एव स्यातामिति. अस्तु, तर्हि परमाणुपरिमाणातिरिक्तपरिमाणं किम् इति वयं ज्ञातवन्तः. अपि च उद्भूतरूपम् इत्युक्ते सम्यक् दृश्यमानम् अथवा सम्यक् प्रकटीकृतं, चक्षुरिन्द्रियेण सम्यक् गृह्यमाणम् इति उद्भूतरूपम्. अनुद्भूतरूपम् इत्युक्ते तस्य रूपं चक्षुषा न गृह्यते, तादृशरूपं. रूपम् अस्ति किन्तु न गृह्यते इन्द्रियैः, तादृशमस्ति. तर्हि एतौ द्वौ परमाणुपरिमाणम् अतिरिक्तपरिमाणम् उद्भूतरूपम् एतौ द्वौ आधारीकृत्य कस्मिन् प्रत्यक्षयोग्यता भवति इति परिशीलयिष्यामः. तत्र एकपञ्चाशत्तमपुटं पश्यतु पुनः. एकं बृहत् चित्रमस्ति तत्र. तत्र नागराजमहोदय चित्रं पश्यति वा, न प्रत्यक्षयोग्याः इति. हा, तस्मिन् चित्रे दक्षिणभागे उपरितनभागे किम् अस्ति इति किञ्चित् परिशीलयतु. पृथिव्यादित्रिकम्
पृथिव्याधित्रिकस्य परमाणुः द्व्यणुकं
तस्मिन् किं किम् अस्ति.
किं भगिनि?
हा, भवान् उक्तवान् एव, समीचीनं वदतु महोदय. तस्मिन् किम् अस्ति इति पृष्टवती.
तस्मिन् उद्भूतरूपमस्ति पृथिव्यादित्रिकस्य परमाणुः द्व्यणुकत्वे उद्भूतरूपमस्ति. परमाणुपरिमाणभिन्नपरिमाणं नास्ति. अहं न अवगतं भगिनि.
अस्तु, पृथिव्यादित्रिकम् इत्युक्ते किं?
पृथिव्यादित्रिकं शरीर इति वा.
पृथिव्यादित्रिकम् इति प्रथमपुटं पश्यतु. तत्र पृथिवी, जलं, तेजः.
पृथिवी, जलं, तेजः. तत्र उद्भूतरूपं तु अस्ति परमाणुपरिमाणभिन्नपरिमाणम् इत्युक्ते किम्?
हा, वस्तुतः विद्याशङ्करमहोदयेन यदुक्तं परमाणुपरिमाणातिरिक्तपरिमाणम् इति खलु. अतिरिक्तम् इत्युक्ते विहाय, परमाणुपरिमाणं विहाय यानि परिमाणानि सन्ति, नाम परममहत् अपि च मध्यमपरिमाणम् इति, तादृशपरिमाणम् अस्ति वा पृथिव्यादित्रिकस्य परमाणुषु?
परमाणुषु नास्ति.
हा, नास्ति खलु. तदेव उपरितन कोष्टके सूचितमस्ति. पृथिव्यादित्रिकस्य परमाणुः अपि च द्वयणुकम् इति यदस्ति. द्वयणुकम् इत्युक्ते द्वाभ्यां परमाणुभ्यां जायमानः पदार्थः. तर्हि परमाणोः अपि च द्वयणुकस्य परमाणुपरिमाणमेव, परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति बुद्धम्? तस्मिन् कोष्टके अपि अस्ति परमाणुपरिमाणम् इत्यस्य श्रेण्यां परमाणोः द्वयणुकस्य च परमाणुपरिमाणम् इत्युक्ते अतीव लघुः, परन्तु उद्भूतरूपम् अस्ति यतोहि पृथिव्यां रूपम् अस्ति वा?
अस्तु, अस्ति,
अस्ति. पृथिव्यादित्रिकम् इति उक्तं, जले रूपम् अस्ति वा?
जले अपि रूपम् अस्ति.
तेजसि?
तेजसि अपि रूपम् अस्ति.
हा, तेजसि भास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपं, पृथिव्यां सर्वाणि रूपाणि इति अस्माभिः अधीतं. तर्हि पृथिव्यादित्रिकस्य परमाणुः, परमाणुः इति बिल्डिङ्ग् ब्लाक्स् अस्ति खलु, परमाणुतः द्रव्यं जायते इति, तादृशरूपं यद् पृथिव्यां जले तेजसि घटे अथवा अस्माकं गृहे जले इत्यादिकं पश्यामः, तादृशरूपं परमाणुषु अपि स्यात्. पृथिव्याः परमाणुः, जलस्य परमाणुः यद् किमपि अस्ति तस्मिन् तादृशरूपं स्यात् एव खलु? इति कृत्वा उद्भूतरूपम् अस्ति परन्तु परमाणुपरिमाणातिरिक्तपरिमाणं नास्ति इति आगतम्. अतः इदानीं वदतु, अस्माकं निकषद्वयम् आसीत्, उद्भूतरूपं स्यात् अपि च परमाणुपरिमाणातिरिक्तपरिमाणं स्यात् इति. अनेन आधारेण परमाणुः, पृथिव्यादित्रिकस्य परमाणुः प्रत्यक्षं भवति वा?
भवति एव, उद्भूतरूपम् अस्ति खलु.
उद्भूतरूपम् अस्ति किन्तु तत्र कण्डीशन् द्वयम् अस्ति, नियमद्वयम्, उद्भूतरूपमपि स्यात् परमाणुपरिमाणं भिन्नपरिमाणमपि स्यात् इति कण्डीशन् द्वयम्. एकं कण्डीशन् तु तत्र पालितमेव, उद्भूतरूपमस्ति. अधुना द्वितीयं, परमाणुपरिमाणमस्ति वा अथवा तद्भिन्नपरिमाणमस्ति वा इति प्रश्नः, किं चिन्तयति? कोऽपि साहाय्यं करोति वा जयन्ती भगिनी?
इदानीं तु पृथ्वीजलतेजः तेषां खलु,
तेषां परमाणवः,
तेषां परमाणवः, तेषां तु परमाणवः तु परमाणश्रेण्याम् अस्ति, परमाणुश्रेण्याम् अस्ति खलु तेषां परमाणवः, पृथ्वीजलतेजः तेषां परमाणं, परिमाणं, क्षम्यतां, परिमाणं तु तेषां परिमाणं परमाणरूपम् इति.
हा, परमाणुपरिमाणं तेषाम्.
आं, परमाणुपरिमाणम्. अतः निकषः न निकषः न पालयति,
नियमं न पालयति. अस्माकं नियमं किम् आसीत् भगिनि, नियमः कः आसीत्?
नियमः अस्ति उद्भूतरूपं भवेत् अपि तु परमाणुपरिमाण अतिरिक्तपरिमाणं भवेत्.
हा, तयोः द्वयोः नियमयोः एकः नियमः अत्र सम्पूर्णः, उद्भूतरूपम् अस्ति.
आम्, तेषाम् उद्भूतरूपम् अस्ति परन्तु तेषां तु परमाणुपरिमाणमेव अस्ति इति कारणात् प्रत्यक्षं न भवति.
इति बुद्धं वा नागराजमहोदय?
अस्तु,
तर्हि परमाणुपरिमाणभिन्न अथवा परमाणुपरिमाण अतिरिक्त परिमाणं नास्ति परमाणुनाम् इति कृत्वा प्रत्यक्षयोग्याः न सन्ति इति. अस्तु, तर्हि वेङ्कटेशमहोदय अग्रिमं परिशीलयति वा, तत्र वामभागे यदस्ति.
इदानीं वायुप्रभृतद्रव्याणि विशेषश्च त्वगिन्द्रियं वायवीयं श्रोत्रेन्द्रियमाकाशस्वरूपञ्च, तत्रापि मुख्यतया इदानीं पुनः तत्र प्रत्यक्षयोग्याः इत्युक्ते प्रत्यक्षयोग्यः भवितव्यः चेत् तत्र उद्भूतरूपं भवितव्यम्, अनन्तरं परमाण अतिरिक्तरूपं परिमाणम् अपि भवितव्यं. तत्र इदानीं परिशीलयामः, त्वगिन्द्रियं वायवीयम् अपि च श्रोत्रेन्द्रियम् आकाशस्वरूपञ्च, तत्र रूपं तु वर्तते परन्तु परमाणुपरिमाणभिन्नपरिमाणं तत्र अस्ति, इत्युक्ते तत्र परमाणुरूपपरिमाणम् अतिरिक्तपरिमाणं नास्ति इति तत्र
आकाशं वायुप्रभृतिद्रव्याणि विशेषतः
अस्ति सत्यम् अस्ति परन्तु तत्र रूपं नास्ति अतः तत्र पुनः तत्र यद्यपि तत्र परमाणुपरिमाण अतिरिक्तपरिमाणम् अस्ति तेषु परन्तु रूपं न वर्तते इति कारणात् तत्रापि तत्र प्रत्यक्षयोग्यः न भवति नास्ति
अत्र अत्र कस्य कस्य विषये चर्चा अस्ति महोदय वस्तुतः पदार्थः कः इति किञ्चित्
पदार्थः कः इत्युक्ते तत्र
त्वगिन्द्रियम् इति पदार्थः
त्वगिन्द्रियम् अनन्तरं श्रोत्रेन्द्रियं
श्रोत्रेन्द्रियं वायु वायुप्रभृतिः इत्युक्ते
घ्राणं वा तत्र
वायु वायुतः आरभ्य
ओ वायुप्रभृतिः
इत्युक्ते किं पृथ्वीजलं तेज वायुः आकाशः ततः आरभ्य तेषाम् इन्द्रियाणि स्वीकृतानि त्वगिन्द्रियं कीदृशम् इन्द्रियं
त्वगिन्द्रियं तु तत्र
वायवीयं
वायवीयम्
इत्युक्ते वायुः इत्यस्यां श्रेण्याम् आगच्छति त्वग् श्रोत्रेन्द्रियं कीदृशम्
आकाशस्वरूपं शब्दरूपम् आकाशं
सत्यं शब्दं गृह्णाति आकाशे एव अस्ति इति कृत्वा आकाशरूपं तर्हि इन्द्रियस्य विषये चर्चा जायमाना अस्ति सर्वेषां वदतु
यत्र पूर्वस्मिन् पुटे आसीत् किल तत्र द्रव्यगुणो उभयग्राहकाणि अनन्तरं गुणमात्रग्राहकाणि इति तत्र तस्मिन् विषये अत्र येन इन्द्रियेण प्रत्यक्षं जनयति अनन्तरं यत्र प्रत्यक्षं न जन केवलं तत्र गुणं गुणग्राहकमेव तत्र भवितुम् अर्हति तस्य आश्रयं तु ग्राहयितुं न शक्नुमः इति तत्र विषयः चर्चा प्रवर्तमाना आसीत् तत् तस्मिन् विषये इदानीं तत्र प्रत्यक्षयोग्यः इत्युक्ते किं प्रत्यक्षयोग्याः न प्रत्यक्षयोग्याः इत्युक्ते किम् इति तत्र किञ्चित् इतोपि स्पष्टीकरणं
कुर्वन्तः त्वगिन्द्रियं वायुवीयमस्ति अपि च श्रोत्रेन्द्रियम् आकाशस्वरूपम् अस्ति नाम स्वयं वायुः अस्ति त्वक् स्वयम् आकाशः अस्ति श्रोत्रम् इन्द्रियाणां सर्वेषां मध्यमपरिमाणम् इति उच्यते कथम् इति चेत् तेषु दिनेषु महोदयेन उक्तमासीत् यद् इन्द्रियाणां सर्वे नाम चक्षुः इति इन्द्रियम् इति स्वीकुर्मः तत्र प्रश्नः अपि आगतः किमर्थम् इन्द्रियाणां परमाणुपरिमाणं न स्यात् इति खलु यथा मनः मनसः परमाणुपरिमाणम् अतीव लघुः चक्षुः किमर्थं तथा न स्यात् इति तर्हि नैयायिकानां मतानुगुणं यदि वयं किमपि पश्यामः तदा यथा सैन्स् वदति तस्मात् वस्तुतः तेजः आगच्छति तथा नास्ति नैयायिकानां चिन्तनेन चक्षुषु या शक्तिः अस्ति सा शक्तिः तावत्पर्यन्तं गच्छति तावत्पर्यन्तं गत्वा रूपं गृह्णाति तादृश इन्द्रियमस्ति त्वगपि तथा श्रोत्रमपि तथा इति ते वदन्ति इति कृत्वा इन्द्रियाणां मनं विहाय मनः विहाय सर्वेषाम् इन्द्रियाणां मध्यमपरिमाणम् एव भवति इति तैः उच्यते तदर्थं त्वगिन्द्रियं वदतु महोदय
तदर्थं तत्र मध्यमपरिमाणम् अस्ति इति कारणात् तत्र परमाणुपरिमाणभिन्नरूप भिन्नपरिमाणम् अस्ति तेषु इन्द्रियेषु परन्तु रूपं न वर्तते प्रत्यक्षयोग्यः न
त्वगिन्द्रियं श्रोत्रेन्द्रियम् इत्यस्य प्रत्यक्षयोग्यता नास्ति इति आगतम् अस्तु समीचीनम् अग्रे रत्ना भगिनी परिशीलयति वा
अस्तु भगिनि घ्राणरसन च घ्राणरसनचक्षुरिन्द्रियाणि पृथिव्यादि रूपाण्यपि अस्तु रूपं वर्तते उद्भूतरूपं नास्ति रूपाणि नानारस अस्तु परमाणुपरिमाणं भिन्नपरिमाणं वर्तते अस्तु अत्र इन्द्रियत्रयं स्वीकृतमस्ति घ्राणेन्द्रियं रसनेन्द्रियं चक्षुरिन्द्रियं च अत्र रूपं वर्तते किन्तु उद्भूतरूपं नास्ति रूपं वर्तते उद्भूतरूपं नास्ति इत्युक्ते
इत्युक्ते घ्राणं कीदृशं पदार्थः
घ्राणं चक्षु न क्षम्यतां घ्राणं नासाग्रवर्ति गन्ध पृथिवीपदार्थः
पृथिवीपदार्थः पृथिव्यां रूपं पृथिव्यां रूपमस्ति वा
हा अस्ति हा किन्तु द्रष्टुं न शक्यते उद्भूतरूपं
घटपटादिषु उद्भूतरूपं किन्तु घ्राणमपि पार्थिवपदार्थः तस्मिन् उद्भूतरूपं नास्ति यत्
हा उद्भूतरूपं नास्ति अनन्तरम् अस्ति परमाणुपरिमाणभिन्नरूपाणि रूपाणां वर्तते अस्तु अत्र निकषद्वयं प्रथमम् अस्ति उद्भूतरूपं नास्ति अतः वयं द्रष्टुं न शक्नुमः इत्युक्ते ते प्रत्यक्षयोग्याः न सन्ति एते इन्द्रियाणि इन्द्रियाणि त्रयाणि
घ्राणं रसनं चक्षुरिति किन्तु तेषां कीदृशपरिमाणं
हा परमाणुपरिमाणभिन्नपरिमाणम् अस्ति लघुना भिन्नपरिमाणम् अस्ति किन्तु उद्भूतरूपं नास्ति इति कृत्वा प्रत्यक्षयोग्यः न
हा समीचीनमस्ति अस्तु इति इन्द्रियाणां परिशीलनं त्वगिन्द्रियं श्रोत्रेन्द्रियम् इत्यस्मिन् रूपमेव नास्ति यतोहि वायौ रूपं नास्ति आकाशे रूपं नास्ति अत्र पृथिव्यादित्रिकस्य इन्द्रियाणि तेषाम् उद्भूतरूपं नास्ति परन्तु उभयत्र मध्यमपरिमाणं वर्तते यथा मया उक्तं परमाणुपरिमाणं तु नास्ति इन्द्रियाणाम् इन्द्रियाणि बहु दूरं गत्वा गुणं ग्रहीतुं शक्नुवन्ति इति कृत्वा तेषां मध्यमपरिमाणं स्वीक्रियते अस्तु अवशिष्टम् इन्द्रियमस्ति
त्वगिन्द्रियम् अपि च श्रोत्रेन्द्रियं यथा पृष्ठं रूपं न वर्तते तथापि ग्रहीतुं किञ्चित् क्लिष्टकरः
केवलम् अहं चिन्तयामि तद् लक्षणवाक्यं दृष्ट्वा समर्थनं कर्तव्यम् इति यतोहि तत्र वायुलक्षणवाक्यं पश्यतु किञ्चित् तत्र कुत्र कस्मिन् पुटे हा द्विचत्वारिंशत्तमे पुटे तत्र अस्ति खलु
नित्यः परमाणुरूपः अनित्यः कार्यरूपः पुनस्त्रि शरीरेन्द्रियविषयभेदात् शरीरमायलोके इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति
इत्युक्ते इत्युक्ते किं मध्यमपरिमाणम् इत्येव खलु सर्वशरीरवर्ति इत्युक्ते अस्मदादीनां शरीरे अथवा यत्र कुत्रापि त्वक् भवति तत्र तत्र सर्वशरीरम् आवृत्य भवति इति भवत्याः चिन्तनं किम् आसीत् अस्तु परमाणुपरिमाणं तु न भवति इति सर्वैः अङ्गीकृतं खलु हा भवत्याः चिन्तनं किम् आसीत् परममहत् परिमाणं स्यात् इति वा
इत्युक्ते वायवीयद्रव्यम् अपि च आकाश वायवीयं त्वगिन्द्रियं श्रोतेन्द्रियं तु आकाशस्वरूपं
सत्यं किन्तु उभयत्र परमाणुपरिमाणभिन्नपरिमाणमेव अस्ति खलु
आम् आम् तत्तु सत्यं परन्तु वायवीय इन्द्रियं वा आकाश इन्द्रियं तु कथं मध्यमपरिमाणं भवितुम् अर्हतः इति
अस्तु आकाशस्य विषये ममापि प्रश्नः अस्ति यतोहि आकाशः इति किं परममहत् परिमाणम् अस्ति आकाशस्य तर्हि प्रायः श्रोत्रस्य तथैव स्यात् परन्तु कर्णपुटेन अथवा कर्णशुष्कली इति यदस्ति तेन पृथक् कृत्वा एकमेकम् इन्द्रियम् इति साध्यन्ते इति चिन्तयामि परन्तु वायोः इन्द्रियं त्वग् तस्य विषये तु मम स्पष्टता अस्ति मध्यमपरिमाणम् इति, यतोहि परममहत् परिमाणं न भवितुमर्हति. परममहत् परिमाणं भवति चेत् वायुः तदा विभू भवति आकाशवत् खलु, तद् न स्यात् इति कृत्वा त्वचः मध्यमपरिमाणमेव इति अस्ति. यत्किमपि भवतु तत्तु परमाणुपरिमाणभिन्नपरिमाणम् इति आगच्छति. अस्तु, समीचीनं. तर्हि अग्रिमम् इन्द्रियमस्ति मनः इति, किञ्चित् परिशीलयति वा तत्र सरला भगिनी?
आं भगिनि, मनः रूपं नास्ति, परमाणुपरिमाणं भिन्नपरिमाणं न वर्तते. अत्र एकं निकष रूपं नास्ति अस्ति, परमाणुपरभिन्नपरिमाणम् अपि न वर्तते, अति लघु अस्ति, परमाणुपरिमाणम् अस्ति, अतः मनः प्रत्यक्षं न ज्ञायते.
हा, समीचीनं, मनसः प्रत्यक्षं न भवति एव, यतोहि नियमद्वयमपि तत्र न अङ्गीक्रियते,
न अङ्गीक्रियते.
रूपमपि नास्ति, परमाणुपरिमाणभिन्नपरिमाणं नास्ति. अस्तु, समीचीनम्. इतः अग्रे गच्छेम. तत्र अधुना प्रश्नः आगच्छति यत् अस्तु, शब्दस्य आश्रयः अस्ति आकाशः, सः तु अतीन्द्रियः, केनचिदपि न गृह्यते. वायुः, वायुः इति यद्वर्तते, वायोः अपि प्रत्यक्षं न भवति, नाम चक्षुषा न गृह्यते वायुः. अत्र प्रत्यक्षम् इत्युक्ते चक्षुषा ग्रहणम् उद्भूतरूपम्. तर्हि कथं वा ते साधयन्ति आकाशः अपि च वायुः इति भिन्नभिन्नद्रव्यम् अस्ति इति? सरला भगिनी किं चिन्तयति?
वायोः परमाणुपरिमाणं मध्यपरिमाणम् इति श्रेण्याम् आगच्छति.
हा, तदपि तत् सत्यं, तत् सत्यं, किन्तु वायोः प्रत्यक्षयोग्यता नास्ति खलु? तर्हि वायोः प्रत्यक्षता, प्रत्यक्षयोग्यता नास्ति चेत् वायुः इति द्रव्यं कथम् अङ्गीक्रियते, कथं स्वीक्रियते इति प्रश्नः. अस्तु, समीचीनं. तर्हि अग्रिमपरिच्छेदं पठतु, तत्र द्विपञ्चाशत्तमे पुटे किं तर्हि तयोः सत्त्वे प्रमाणम् इति.
किं तर्हि तयोः सत्त्वे प्रमाणम् अनुमानं? पृथ्व्यादित्रिके यत् यादृशस्पर्श वर्तते तत् विज्ञातीयस्पर्श अनुभूयमानः, यः स आश्रयभूतद्रव्यम् अपेक्षते, तत् आश्रयस्यया वायुः सिध्यति. एवमेव शब्दरूपगुण आश्रयभूतं द्रव्यम् आवश्यकम् इति, तदा आश्रयतया आकाश सिध्यति. अस्तु, किं तर्हि तयोः, तयोः इत्युक्ते आकाश शब्दतयोः,
आकाशस्य वायोः,
आकाशवायोः, अस्तु, आकाशवायोः प्रमाणं किम् अस्ति? प्रमाणं भवति अनुमाने, अनुमानम् इति वयं साध्य प्रत्यक्षपरिमाणम् अनुमानमपि एकं ज्ञानस्य विधिः अस्ति. पृथ्व्या आदित्रिके, इति अपि जलं भगिनि,
पृथ्वी जलं तेजः, तत्र तेषु यादृशस्पर्शः अस्ति? पृथिव्याम् अनुष्णाशीतस्पर्शः, जले शीतस्पर्शः, तेजस्वी उष्णस्पर्शः, तादृशस्पर्शः वायौ अस्ति वा इति प्रश्नः. किं चिन्तयति?
वायौ तत् स्पर्शं नास्ति, अतः
हा, तदेव अत्र उक्तं, तद्विजातीयस्पर्शः अथवा विलक्षणस्पर्शः अनुभूयते खलु अस्माभिः.
अस्तु,
तर्हि तादृशविलक्षणस्पर्शः कुत्र स्यात् इति प्रश्नः भवति. तदा तदर्थं तदाश्रय
तदर्थं तस्य आश्रयभूतद्रव्यम् अपेक्षते इति तत् आश्रयतया वायुः सिद्ध्यति. सो तस्य यदि वयं स्पर्शम् अनुभवामः तस्य आश्रयवायुः अस्ति इति अनुमानम् अस्ति. इन्द्रियग्रहणे इन्द्रिय हि ग्रहणे गृहकं वायुः अस्ति.
हा सत्यं. तर्हि तादृशस्पर्शः कुत्रचित् स्यात्, सः वायुः इति आगच्छति. अनन्तरम् आकाशस्य विषये किमस्ति भगिनि?
एवमेव शब्दरूपं गुणस्य आश्रयभूतं द्रव्यम् आवश्यकम् इति तदाश्रयतया आकाशः सिद्ध्यति. यदि श्रोत्रेन्द्रियणे शब्द ग्राहकं भवति तत् प्रत्यक्षं नास्ति, अनुमाने आश्रय आकाशः अस्ति इति सिद्ध्यति. शब्दस्य आश्रयम् आकाशः.
हा सत्यं, शब्दस्य आश्रय आकाशः इति अनुमानेन सिद्ध्यमाने द्वे द्रव्ये एते वायुः अपि च आकाशम्. अग्रिमविषयः अस्ति, अस्तु अनुमानेन साधितं खलु वायुः अपि च आकाशम्, अनुमानेन साधयित्वा कथं वदन्ति आकाशम् एकं वायुः नानाविधः इति कथं वदन्ति इति चेत् तत्र पुनः अनुभवम् आश्रित्य एव वदन्ति. वायोः विषये अनुभवामः यद् वृक्षादिकम्पनहेतुः भिन्नः समीरणः इति उच्यते, शरीरान्तसञ्चारी वायुः प्राणः भिन्नः इति अनुभवामः, तदर्थं तत्र नानात्वम्. आकाशस्य विषये नानात्वस्य साधनाय कापि युक्तिः नास्ति, तादृश अनुभवः नास्ति इति कृत्वा आकाशः एकमेव, आकाशम् एकम् इति उच्यते. तर्हि अत्र उच्यते यत् नानात्व स्वीकारेण प्रथमम् अनुमानं तेन पुनः नानात्वम्. इदानीं पृथिव्याः विषयः तथा नास्ति खलु, पृथिव्याः विषये प्रत्यक्षं ज्ञानम् अपि च पृथिवी प्रत्यक्षत्वेन द्रष्टुं शक्नुमः नानाविधाः पृथिवी इति, तत्र कोऽपि क्लेशः नास्ति बुद्धेः. परन्तु वायोः विषये बुद्धेः क्लेशः भवति, एकत्वं न भवति, नानात्वं स्वीकार्यः इति, तदेव गौरवम् इति उच्यते. यत्र तादृशबुद्धेः क्लेशः न भवति, अस्तु अस्माकम् अनुभवे आकाशम् एकमेव, पुनः कापि युक्तिः न रचनीया, तादृशी अनुभवः अपि नास्ति इति कृत्वा एकत्वसाधनयुक्तिः एव लाघवम् इति उच्यते.
लाघवं सौकर्यं भवति.
हा बुद्धेः सौकर्यं लाघवम्, असौकर्यम् अथवा क्लेशः इति गौरवं. तादृश असौकर्यम् अनुभूयते पुनः मनसः विषये. मनः इति अपि प्रत्यक्षयोग्यः नास्ति, परन्तु वयं जानीमः यत् सुखदुःखादि इत्यादिकं गृह्यते केनचित्, तादृश इन्द्रियम् अस्ति मनः इति अस्माभिः ज्ञायते, मनः द्रव्यमपि. परन्तु एतदपि ज्ञायते यत् अस्तु मनसः एकत्वं न साधयितुं शक्नुमः, यथा वयम् अस्माभिः चर्चितं ज्ञानं क्षणिकम्, एकैकम् एकस्य ज्ञानस्य अथवा एकस्मिन् आत्मनि एकः मनः इति कृत्वा मनसः विषये अपि नानात्वं सिद्ध्यति इति कृत्वा मनसः विषये अपि तादृश गौरवम् आगच्छति इति उच्यते तैः. अत्र कोऽपि प्रश्नः वा?
स्पष्टम् अस्ति.
एवमेव रीत्या कालदिशोः अपि भवति, कालः अपि एकः दिशः अपि एकः इति भवति, अनुमानेन सिद्ध्यति कालः दिश् कालः अपि च दिक् अपि, परन्तु तेषाम् एकत्वं सिद्ध्यति अपि च नित्यत्वमपि अस्ति, यतोहि अनित्यत्वम् इति साधनार्थं कोऽपि किमपि कारणं नास्ति इति कृत्वा लाघवम् अस्ति. यत्र नित्यत्वम् एकत्वं सिद्ध्यति तत्र लाघत्वम् इति उच्यते. अन्तिम विषयः अस्ति श्रोत्रेन्द्रियस्य विषये. प्रश्नः आगतः आसीत् खलु श्रोत्रेन्द्रियम् आकाशरूपं कुतः न उक्तम् इत्यादिकं, तर्हि प्रायः जयन्ती भगिनी पठति वा अग्रिमे पुटे? अस्ति तथापि, अस्ति तथापि, हा
अस्ति तथापि श्रोत्रेन्द्रियम् आकाशरूपं कुतः तन्नोक्तम् उच्यते? घ्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव. तथा हि द्वाभ्यां पृथिवीपरमाणुभ्यां पृथ्वीद्वयणुकम् उत्पद्यते. त्रिभिः द्वयणुकैः त्रयणुकम् उत्पद्यते. चतुर्भिः त्रयणुकैः चतुरणुकम् इत्येवम् अवयविनां घटादीनाम् उत्पत्तिः भवति. तत्र पृथ्वीपरमाणुद्वय अणुकयोः उद्भूतरूपसत्त्वे अपि परमाणुपरिमाण अतिरिक्तपरिमाण अभावात् प्रत्यक्षं न भवति इति प्राग् उक्तम्. त्रयणुकात् प्रभृति चरम अवयवविपर्यन्तं चरम अवयविपर्यन्तं सर्वेषु महत्त्वोद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम्. एवं जलादौ अत्र प्रश्न उदेति यत् श्रोत्रेन्द्रियं तु आकाशात् उत्पद्यते इति.
आकाशात् उत्पद्यते न आकाशरूपम्. यथा सुवर्णं तैजसम् इति वदामः तद्वत् श्रोत्रम् आकाशीयम् इति किमपि वक्तम्
आकाशरूपम् अस्ति. घ्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अत्र अवयवानाम् उत्पत्तिः कथं जायते? अवयवेभ्यः अवयविनी कथं जायते इति सर्वं दीयते अत्र. इत्युक्ते परमाणुः अस्ति. परमाणु द्वयेन द्वयणुकम् उत्पद्यते. पुनः त्रिभिद्वयणुकैः त्रयणुकम् उत्पद्यते. पुनः चतुर्भिः त्रयणुकैः चतुरणुकम् इति पार्थिवद्रव्याणाम् उत्पत्तिः तदेव भवति. तत्र पृथ्वीपरमाणुद्वयणुकयोः उद्भूतरूपसत्त्वे अपि तत्र परमाणवः अपि तु परमाणुद्वयणुकयोः उद्भूतरूपं तु अस्ति. परन्तु परमाणुपरिमाण अतिरिक्तरूपं परमाणुपरिमाण अतिरिक्तपरिमाण अभावात् इत्युक्ते मध्यमपरिमाणं नास्ति परममहत्परिमाणं नास्ति तेषां तेषाम् इत्युक्ते अत्र परमाणुः द्वयणुकयोः
प्रत्यक्षं न भवति
तेषाम्
इति वयं जानीमः एव. नाम मूलप्रश्नः अस्ति श्रोत्रेन्द्रियम् आकाशम् इत्यस्य परम्परा का अवयवपरम्परा इति. एतत्तु सामान्य अवयवपरम्परा अस्ति. अस्तु, पार्थिवद्रव्याणां पृथिव्यादिचतुष्टयस्य पृथ्वी जलं तेजः वायुः इत्येषां घ्राणेन्द्रियाणाम् अपि च वायुवीय इन्द्रियं त्वक् इत्यस्य रसनेन्द्रियस्य एतादृशी परम्परा अस्ति. परन्तु इन्द्रियेषु घ्राणं रसनम् अपि च किं तत्र अन्यत् किमस्ति चक्षुः इत्यस्मिन् रूपं नास्ति. किमर्थं चेत् अवयवपरम्परायां कश्चन विरोधः जातः इति उच्यते तैः. इति तु अस्ति. अधुना अस्माकं मूलप्रश्नः अस्ति श्रोत्रेन्द्रियस्यापि एतादृशी अवयवपरम्परा अस्ति वा इति. इत्यस्य उत्तरम् अग्रिमपृष्ठे अस्ति. रत्ना भगिनी पठति वा चतुर्पञ्चाशत्तमे पुटे एतादृशोत्पत्तिपरम्परा?
भगिनि तत्पूर्वम् एकः प्रश्नः अस्ति. तत्र ज्ञानेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः इति अस्ति किल, तत्र केषाम् इन्द्रियाणाम् उत्पत्तिः तत्र घ्राणं स्वक् श्रोत्रं मनः वा?
न न न, घ्राणेन्द्रियात् प्रभृति इत्युक्ते पुनः सा एव पङ्क्ति आश्रयणीया यत् प्रथमे पुटे अस्ति.
घ्राणं त्वक् श्रोत्रं
मनः किल?
न न, एकनिमिष, घ्राणेन्द्रियम् इति पार्थिवपदार्थः अर्थः खलु. पृथिव्यादिचतुष्टयम् इति किम्? पृथ्वी जलं तेजः वायुः हा ग्राणेन्द्रियात् प्रभृति इत्युक्ते पार्थिव इन्द्रियं जलीय इन्द्रियं तैजस इन्द्रियं वायुवीय इन्द्रियम् एतेषां चतुर्णाम् अवयवपरम्परा अस्ति. अवयवपरम्परा किमर्थम् अस्ति इत्युक्ते पृथ्वी जलं तेजः वायुः अनित्यद्रव्याणि इत्यतः. श्रोत्रेन्द्रियस्य काचित् भिन्ना एव परम्परा, तादृशी परम्परा एव नास्ति इति काचित् वैविध्यमस्ति इति अग्रे रत्ना भगिनी पठति वा.
हा अस्तु भगिनि. एतादृश उत्पत्ति परम्परा न श्रोत्रेन्द्रिये घटते, तस्य आकाशरूपत्वस्वीकारात्. आकाशस्य एकत्वेन परमाणुद्वयणुकादिपरम्परा श्रोत्रस्य उत्पत्तिः न सम्भवति, क्षम्यताम्. अतः श्रोत्रस्य नित्यत्वात् इतरजन्येन्द्रियवत् अस्य पृथगुल्लेखः न कृतः. अस्तु, यथा घ्राणेन्द्रियरसनेन्द्रियचक्षुरिन्द्रियत्वगिन्द्रियाणां उत्पत्तिः भवति इति उक्तं पूर्वं, किन्तु श्रोत्रेन्द्रियस्य उत्पत्तिः न भवति. किमर्थम् इत्युक्ते एषः एतम् इन्द्रियम् आकाशम् अस्ति, आकाशस्य एकत्वेन. आकाशम् एकमेव अस्ति, श्रोत्रेन्द्रियः आकाशः अस्ति, अतः परमाणुद्वयणुकादि परम्परा नास्ति श्रोत्रेन्द्रियस्य. अतः अपि च सः नित्यः अस्ति, नित्यमस्ति एतत्. अतः अस्य पृथग् उल्लेखः न कृतः,
लक्षणवाक्ये न कृतः इति अर्थः. अस्तु, इति विचारः. अन्तिमभागमपि पठतु भगिनि, अन्तिमपरिच्छेदम्
सङ्ग्रहे इति वा
न, परन्तु कस्यचित् पुंसः.
परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम् अन्यस्य न इति व्यवस्थानिर्वाहाय तत्तत् शरीरभेदेन श्रोत्रेन्द्रियाणि अपि अनन्तानि साधनीयानि. अतः कर्णशुष्कुली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवति इति कल्प्यते इत्यलम्. अस्तु, श्रोत्रेन्द्रियम् आकाशम् अस्ति चेत् सर्वेषां श्रोत्रेन्द्रियाणि एकमेव भवति. एकः शृणोति चेत् किमपि शब्दं सर्वे श्रोतव्यम् इति भवति, तथा स्वीकुर्मः चेत्. अतः अत्र इतोपि एकं कल्प्यते इत्युक्ते सः आकाशः श्रोत्रेन्द्रियः आकाशः कर्णशुष्कुली इत्युक्ते कर्णपुटेन भिद्यते. कर्णपुटं तस्य अवच्छेदकः भवति प्रत्येकस्य श्रोत्रेन्द्रियस्य इति स्वीकुर्मः.
हा समीचीनम्. एकः एव आकाशः विभुः, श्रोत्रेन्द्रिया अपि आकाशदेशे तथैव अस्ति नित्यत्वेन विभुत्वेन. परन्तु यथा मनसः विभजनं जातमासीत् अनन्तानि मनांसि सन्ति, यतोहि एकैकस्य आत्मनः ज्ञानम् एकैकं मनः गृह्णाति, तद्वद् श्रोत्रेन्द्रियस्य अपि तादृशी एव तर्कः. अहं यत् शृणोमि भवती न शृणोति इति सर्वं कृत्वा कर्णपुटम् इति उपाधिः अस्ति आकाशे, तेन श्रोत्रेन्द्रियाणि भिद्यन्ते इति उच्यते.
तर्हि भगिनि, तर्हि तत्र श्रोत्रेन्द्रिये परममहत्त्वपरिमाणम् अस्ति वा, आकाशवत् रूपम् अस्ति इति कारणात् उत मध्यपरिमाणम् अस्ति वा शरीन्द्रियविषयभेदात् इति, तत्र अन्येष इन्द्रियेषु मध्यपरिमाणम् इति स्वीक्रियते, तत् कथं तत्र यद्यपि प्रत्यक्षयोग्यः नास्ति यतः परिमाण परमाणुपरिमाणभिन्नपरिमाणम् अस्ति इति कारणात् तत् अङ्गीकरोमि. परन्तु त्वगिन्द्रियवायवीये यदस्ति तथा एव श्रोत्रेन्द्रियम् आकाशस्वरूपञ्च इति, तत्र तस्मिन् विषये तत्र किं भवति चिन्तयति?
मम चिन्तनम् अस्ति यत् प्रथमतया श्रोत्रेन्द्रियस्य उल्लेखः नास्ति लक्षणवाक्ये. किमर्थम् इत्युक्ते अवयवपरम्परा नास्ति, अवयवैः न जायमानः इति सर्वं दृष्ट्वा एतद् नित्यं यथा आकाशः. अपि च आकाशः सन् तस्य परममहत् परिमाणमपि स्यात् इति मम चिन्तनं. नो चेत् किं यथा शरीरेन्द्रियविषयभेदात् इति उक्त्वा इन्द्रियम् इति स्थापितमासीत् तथा स्थापयन्ति खलु. भवान् किं चिन्तयति?
तदेव तदेव मम अपि तत्र इदानीं स्पष्टी प्रायः तदा यदा तदा तत्र प्रश्नः उदितः इदानीं तत्र तस्य समाधानं किञ्चित् अत्र प्राप्यते इति मम अपि तत् समीचीनं वा इति ज्ञातुमेव अहं पृष्टवान्
इति ममापि
अहमपि चिन्तितवान्.
इति स्यात् समीचीनः एव. अपि च भवतां स्वाध्याये अथवा कदाचिदपि प्रश्नः आगच्छन्ति चेत् कृपया मह्यं प्रेषयतु. अहम् एकम् आवलीं रचयन्ती अस्मि यथा अद्यतनप्रश्नाः आगतः खलु तेषां सर्वेषां. तर्हि महोदयस्य आगमनानन्तरं प्रेषयितुं शक्नुमः इति. अस्तु, तर्हि स्वाध्यायार्थं पुनः कालः अपि च दिग् इति विषयौ एव भवेताम् इति चिन्तयामि. यतोहि मुख्यः विचारः अद्य किञ्चित् प्रष्टुम् इष्टवती किन्तु समयः नास्ति इत्यतः पुनः स्वाध्यायरूपेण कालः अपि च दिक् इत्यस्य स्वाध्यायं कृत्वा प्रश्नाः सन्ति चेत् अग्रे अग्रिमसप्ताहे चर्चयिष्यामः. अस्तु, अन्यत् किमपि चिन्तनमस्ति वा? नो चेत् विरमामः. धन्यवादः.
धन्यवादः.